अथ बोधिचित्तानुशंसा नाम प्रथमः परिच्छेदः। ॐ नमो बुद्धाय। सुगतान् सुतान् सधर्मकायान् प्रणिपत्यादरतोऽखिलांश्च वन्द्यान् सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासा। न हि किञ्चिदपूर्वमत्र वाच्यं न च सङ्ग्रन्थनकौशलं ममास्ति। अत एव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं मयेदम्। मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः। अथ मत् समधातुरेव पश्येत् अपरोप्येन मतोऽपि सार्थकोऽयम्। क्षणसम्पदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी। यदि नात्र विचिन्त्यते हितम् पुनरप्येष समागमः कुतः। रात्रौ यथा मेघघनान्धकारे विद्युत् क्षणं दर्शयति प्रकाशं, बुद्धानुभावेन तथा कदाचित् लोकस्य पुण्येषु मतिः क्षणं स्यात्। तस्मात् शुभं दुर्बलमेव नित्यं, बलं तु पापस्य महत् सुघोरम्। तज्जीयतेऽन्येन शुभेन केन सम्बोधिचित्तं यदि नामनस्य। कल्पान् अनल्पान् प्रविचिन्तयद्भिर्दृष्टं मुनीन्द्रैर्हितमेतदेव। यतः सुखेनैव सुखं प्रवृद्धम् उत्प्लावयत्य प्रमृताञ्जनौह। भवदुःखसतानि तर्तु कामैः अपि सत्त्वव्यसनानि हर्तु कामैः। बहुसौख्यसतानि भोक्तु कामैर्न विमोच्यं हि सदैव बोधिचित्तम्। भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन। स नरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते। अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घां रसजातमतीव वेदनीयं। सुदृढं गृह्णत बोधिचित्तसंज्ञम्। सुपरीक्षितमप्रमेयधीभिर् बहुमूल्यं जगदेकसार्थवाहै। गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नम्। कदलीव फलं विहाय याति क्षयमन्यत कुशलं हि सर्वमेव सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरतीक्ष्णेन शूराश्रयेणेव महाभयानि न श्रीयते तत् कथमज्ञसत्त्वैः युगान्तकाला नलवन्महान्ति पापानि अन्निर्दहति क्षणेन यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमा तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते तथा भेदो नयुर्गेयो यथा सङ्ख्येन पण्डितै बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत् न त्ववित्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः यतप्रभृत्यपर्यन्त सत्त्वधातु प्रमोक्षणे समाददाति तच्चित्तम् अनिवर्त्येन चेतसा ततः प्रभृतिसुप्तस्य प्रमत्तस्याप्यनेकशः अविच्छिन्ना पुण्यधाराः प्रवर्तन्ते नभः समाः इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथा गतः शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः किमुताप्रतिमं शूलम् एकैकस्य जिहीर्षतः अप्रमेयगुणं सत्त्वम् एकैकं च चिकीर्षतः कस्य मातुः पितुर्वापि हिता संशेयमीदृशी देवतानां ऋषीणां वा ब्राह्मणां वा भविष्यति तेषामेव च सत्त्वानां स्वार्थेऽप्येष मनोरथः नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे सम्भवः कुतः सत्त्वरत्नविशेषोऽयम् अपूर्वो जायते कथम् यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते जगदानन्दबीजस्य जगद्दुःखौषधस्य च चित्तरत्नस्य यत् पुण्यं तत्कथं हि प्रमीयताम् हिताशंसनमात्रेण बुद्धपूजा विशिष्यते किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमा दुःखमेवाभिधावन्ति दुःखनिःसरणाशयः सुखेच्छयैव सम्मोहात् स्वसुखं घ्नन्ति शत्रुवत् यस्तेषां सुखरङ्काणां पीडितानाम् अनेकशः तृप्तिं सर्वसुखैः कुर्यात् सर्वाः पीडाश्चिनत्ति च नाशयत्यपि सम्मोहं साधुस्तेन समः कुतः कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः कृते यः प्रतिकुर्वीत సోపి తావత్ ప్రశస్యతే అవ్యాపారిత సాధుస్తు బోధిసత్వ కిముచ్యతాం. కతిపయ జనసత్రదాయక కుశలకృదీత్యభిపూజ్యతే జనైః క్షణమసనకమాత్రదానతః సపరిభవం దివసార్ధయాపనా. కిము నిరవధి సత్వసంఖ్యయా నిరవధి కాలమనుప్రయచ్ఛతః గగనజన పరీక్షయాక్షయం సకలమనోరథ సంప్రపూరణం. ఇతి సాత్రపతో జినస్య పుత్రే కలుషం స్వే హృదయే కరోతి యశ్చ కలుషోదయ సంఖ్యయా సకల్పాన్ నరకే స్వావసతీతి నాథ ఆహ. అథ యాస్య మన ప్రసాదమేతి ప్రసవే తాస్య తతోధికం ఫలం మహతా హి బలేన పాపకం జిన పుత్రేషు శుభం త్వయత్నతః. తేసాం శరీరాణి నమస్కరోమి యత్రోదితం తద్ వరచిత్తరత్నం యత్రాపకారోపి సుఖానుబంధి సుఖాకరాం స్తాన్ శరణం ప్రయామి. సుఖాకరాం స్తాన్ శరణం ప్రయామి. సుఖాకరాం స్తాన్ శరణం ప్రయామి. ఇతి శ్రీ శాంతిదేవ విరచితే బోధిచర్యావతారే బోధిచిత్తానుశంసా నామ ప్రథమః పరిచ్ఛేదః. ఓ